एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाले गतदिने अतिरिक्ताः 169,737 च जनाः कोरोना विषाणु संक्रमणात् मुक्ताः सन्ति। एतदनु ह्यस्तनावधि संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्षद्वयं चतुस्त्रिंशत् सहस्राणि एकत्रिंशद् अधिक शतद्वयं च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्तेषु 69,007 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। गतदिने वर्धितानां संक्रान्तानां जनानां मध्ये 82,400 जनाः काष्ठमण्डप उपत्यकायाः सन्ति। कोरोना संक्रमणस्य कारणेन ह्य 15 जनाः मृताः। अनेन सह नेपाले ह्यस्तनावधि कोरोना संक्रमणस्य कारणेन मृतानां जनानां संख्या 1,89,600 च प्राप्ता वर्तते। ह्य आराष्टम् 11,373 च कोरोना विषाणु सक्रिय संक्रान्ता जना सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। कोविड 19 संक्रमणं 10.9% समुदाय प्रसृतमिति अध्ययनेन प्रदर्शितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य महामारी संक्रामक रोग नियन्त्रण महाशाखया विश्व स्वास्थ्य संगठनस्य सहयोगे आराष्टं विहितेन रक्तस्थ प्रतिरक्षक तत्वस्य परीक्षणेन 10.9% संक्रमणस्य समुदायस्तरे प्रसरणं दृष्टमिति महाशाखायाः निर्देशक डाक्टर वासुदेव पाण्डे अज्ञापयत्। अछाम जनपद चिकित्सालयस्य 17 कर्मचारीषु कोरोना विषाणु संक्रमणस्य दर्शनमनु चिकित्सालयेषु अनिश्चितकालाय पिधापितो वर्तते। आकस्मिक सेवाः विहाय अन्याः सर्वाः सेवाः पिधापिताः सन्तीति चिकित्सालयस्य निमित्त सुपर्यवेक्षकः डाक्टर मनोज विष्टः अवदत्। चिकित्सालयस्य प्रयोगशालायां कार्यरतेषु सम्पूर्ण कर्मचारीषु अपि कोरोना लक्षण दर्शनस्य पश्चात् अपर व्यवस्थायाः असम्पादनं यावत् प्रसूति सेवा च पिधापिता स्थिति चिकित्सालयो ज्ञापयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते समाजवादोन्मुख राज्य निर्माणस्य मुख्य दायित्वं वामदलस्य स्कन्दे एव वर्तते। दल केन्द्रीय कार्यालय धुम्बारा स्थाने ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड अवोचत् दलस्य अभ्यन्तरे विहितेन विमर्शनेन दलस्य विधि विधानं पद्धतिश्च संस्थाप्यन्ते। असौ संघीय लोकतान्त्रिक गणतन्त्रं संस्थागतं विधाय देशे आर्थिक विकासस्य नवीन यात्रायाम् आत्मभिः अग्रे प्रवर्धितम् इति अवोचत। कार्यक्रमे दलस्य वरिष्ठ नेता माधव कुमार नेपालः दलाभ्यन्तरे उत्पन्नेन विवादेन दल विभाजनस्य अपेक्षया दलस्य एकीभवनाय सहयोगो मेलिष्यतीति विश्वासं व्यक्तवान्। अर्थमन्त्री विष्णुप्रसाद पौडेल भाषते कोविड 19 विरोधिनः टीकाकरणस्य यथासम्भवं शीघ्रं सहजतया उपलब्ध्यै सर्वकारः क्रियाशीलो वर्तते। नेपालार्थिक पत्रकार संघस्य पञ्चमी महासभां ह्य काष्ठमण्डपे सम्बोधयन् अर्थमन्त्री पौडेल अवोचत् विश्वस्य कोविड 19 महामारीतः आक्रान्तस्य आर्थिक सामाजिक जीवनस्य पूर्वावस्थायां प्रत्यावर्तनम् इदानीन्तन प्रमुख समाह्वयो वर्तते। महासभाया समापन कार्यक्रमे सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पार्वती गुरूङ अवदत् दलस्य आभ्यन्तरत एव सर्वकाराय असहयोग विहितोऽस्ति। मन्त्री गुरूङ राष्ट्रम् अस्थिरतां प्रति नेतुं बाह्य तत्वाद् दलस्य आभ्यन्तरतश्च चलखेलः प्रारब्धोऽस्तीति भाषमाणः असन्तुष्टिं परित्यज्य राष्ट्रस्य हितार्थं कार्यसम्पादनाय एकीभवितुं बलं प्रादात्। मन्त्री गुरूङ सभ्यस्य सुसंस्कृतस्य च समाजस्य निर्माणे पत्रकारितायाः महत्वपूर्णा भूमिका भवतीति हेतोः सत्य निष्पक्ष पारदर्शिन्याः सूचनायाः सम्प्रेषणं पत्रकाराणां दायित्वमस्तीति अवोचत्। मन्त्री गुरूङ परामृशत् सूचनायाः सम्प्रेषणस्य क्रमे न केवलं समस्या प्रदर्शनीया अपितु समाधानस्य उपायाश्च उल्लेखनीयाः। अत्रान्तरे नेपालार्थिक पत्रकार संघस्य पञ्चमी महासभा 3 सदस्यीयां नूतन कार्यसमितिं संघटय्य सम्पन्नास्ति। महासभातः संघस्य नूतनाध्यक्षपदे द राइजिङ नेपाल पत्रिकायाः मोदनाथ ढकालः उपाध्यक्षपदे रेडियो नेपालस्य भुवन प्रसाद आचार्यश्च निर्वाचितौ स्तः। नवनिर्वाचित पदाधिकारीभ्यः संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ प्रमाणपत्राणि व्यतरत्। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेल देशस्य सर्वेषु स्थानीय स्तरेषु प्राविधिक शिक्षाया प्रापणे बलं ददाति। झापा जनपदस्य वीरतामूढस्थाने संचालितं बहुप्राविधिक शिक्षालयं ह्य उद्घाटयन् मन्त्री पोखरेल देशे विज्ञान प्रविधौ आदृताया प्राविधिक शिक्षाया आवश्यकता प्रवर्धमानास्तीति हेतोः स्तरत्रयस्यैव सर्वकाराणां समन्वये सर्वेषु स्थानीय स्तरेषु प्राविधिक शिक्षाया प्रापणे बलं प्रादात्। विश्वस्य अधिकतम विकसित राष्ट्रैः प्राविधिक शिक्षाया माध्यमेनैव दक्ष जनशक्तिम् उत्पाद्य देशः समृद्ध विहिता इति तर्कयन् मन्त्री पोखरेल अगदत् वर्तमानावस्थायां शिल्प प्रविधिभ्यां रहिताया शिक्षाया महत्वं नास्ति। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री पद्मा कुमारी अरियाल कथयति राष्ट्रस्य समृद्धे आधार भूमि स्रोतो वर्तते। भूमि सम्बद्ध समस्या समाधान योगेन ह्या आयोजिते गण्डकी प्रदेश स्तरीय कार्यक्रमे असो अवदत् वैज्ञानिक भूमि सुधार व्यवस्थापनाय भूपयोग विधिम निर्माय भूमेः नूतनं वर्गीकरणं विधास्यते। मन्त्री अरियालः प्राकृतिक स्रोत साधनानि अधिकतमम् उपयुज्य कृष्युत्पादकत्वम् अभिवर्ध्य समृद्धेः कार्यक्रमः सञ्चाल्यन्ते इति अज्ञापयत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई कथयति मस्जिद धार्मिक सहिष्णुताया सद्भावस्य निदर्शनं वर्तते। काष्ठमण्डपस्य घण्टाघर स्थितं पञ्च काश्मीरी तकिया मस्जिद गृहं यो निरीक्षमाणः मन्त्री भट्टराई धर्म संस्कृत्योः संरक्षण संवर्धनयोः दायित्वं सर्वकारस्य स्थिति चर्चाय नगदत् पञ्चशतस्य वर्षाणां प्राचीनेतिहासवाहकं मस्जिद गृहं सर्वकारः संरक्षति। नेपाली कांग्रेस दलेन दलस्य पूर्व केन्द्रीय सदस्यस्य प्रजातन्त्र सेनानिनश्च श्यामलाल श्रेष्ठस्य निधनं प्रति दुःखं व्यक्तवता तस्य शोके दिनत्रयं दलस्य ध्वजार्धम् अवनम्यते। सभापते शेरबहादुर देवाविदस्य अध्यक्षतायां ह्यः उपविष्टेन दलस्य केन्द्रीय कार्यसमिते आकस्मिकोपवेशेन अद्ययावत् दिवसत्रयावधि दलस्य केन्द्रीय कार्यालये सर्वेषु जनपद कार्यालयेषु च दलस्य ध्वजम् अर्धम् अवनमयितुं निर्णीतमस्ति। अद्य बाला चतुर्दशी नाम्ना प्रथितायां मार्गकृष्ण चतुर्दशी तिथौ शतं बीजानि विक्रियन्ते। अस्यां तिथौ सन्ततयः दिवंगतानां पितृणां स्मृतौ काष्ठमण्डपस्य पार्श्वपद क्षेत्रस्य कैलाश स्मान्तक स्थलम् एत्य धान्यमुद्ग मास गोधुम मर्कटान्न प्रियङ्गु निवाराश्चेति धान्य सप्तकेन युक्तानि शतं बीजानि विकिरन्ति। अस्यां मार्गकृष्ण चतुर्दशी तिथौ शतबीजरोपणेन पितरः सद्गतिं लभन्ते तदीया सन्ततयश्च पितृणाम् आशीर्वादै धनधान्य सम्पन्ना भवन्तीति धार्मिक विश्वासो वर्तते। बाला चतुर्दशी तिथौ काष्ठमण्डप उपत्यकाया वही प्राय सर्वेषु शिवालय परिसरेषु अपि दिवंगत पितृकाः सन्ततयः शतबीजं विकिरन्ति। अस्मिन् वर्षे कोविड उनविंशते संक्रमणस्य कारणेन पार्श्वपद क्षेत्रे जनसम्मर्द युता मेला निषिद्धा वर्तते इति पशुपति क्षेत्र विकास कोषो ज्ञापयति। देशस्य अन्येषु शिव मन्दिरेषु अपि कोविड उनविंशते संक्रमण प्रसरणस्य कारणेन शतबीज विकरणं प्रभावितमस्ति। भक्तपुरस्य चांगुनारायण नगर पालिकाया पञ्चमवडा क्षेत्रवर्तिनी त्रिशूल डाँडा स्थाने विश्वस्यैव उच्चतमं त्रिशूलं संस्थापितमस्ति। महाकाल त्रिशूल डाँडा उपभोक्तृ समित्या महाकाल डाँडा स्थान परिसरे ह्य आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य उपसभापति विमलेन्द्र निधि निर्माणाधीन त्रिशूलस्य शिलान्यासं व्यदधात्। तदवसरे असौ अवोचत् संविधानेनैव हिन्दुधर्मस्य संरक्षण विहितमस्ति इति कारणेन संविधानस्य वैपरीत मार्गे गमनस्य आवश्यकता नास्ति। असौ हिन्दुधर्मं योजयित्वा राज्ञः समागोषो व्यर्थोस्तीति धारणाम् उपस्थापयत्। त्रिशूलडाणास्थाने चतुष्कोटीनां द्वाचत्वारिंशतो लक्षाणाम् एकादशसहस्राणां त्रयोदशाधिक नवशतस्य च रूप्यकाणां व्ययेन एकविंशत्यधिक शतफीटमितं उच्च परिमाणकं त्रिशूलं पञ्चपञ्चाशत् फीटमितं गुरु गोरक्षनाथ मन्दिरञ्च संस्थाप्यमाने स्तः। इति समाचाराः।